नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दशवे नमः नमस्ते अस्तु तन्वने बाहुभ्यामुतते नमः याथा इषु शिवतमा शिवां बपूवते तनुः शिवा सरव्यायाथवतया नो रुद्रहृदय याते रुद्रशिवा धनुरकोरापापकासिनी तया नस्तनुवा सन्तमया गिरिसंस्थापिकाकसी यामिसुं गिरिसन्तहस्ते पिपर्चस्तवे शिवां गिरित्रथां कुरुमाहिकं से पुरुचं चकत शिवेन वचसा त्वाहिरिसा चावतामसि यथा नश्चर्वमित्यकतयक्ष्मकं सुमना असत् आच्यवोचतरि वक्ता प्रथमो देव्यो विशक् अहिकुश्च सर्वाहाज्यं वयं सर्वाश्च याचुतान्यः असूयस्थाम्रो अरुण उत पपृष्मङ्गलः ये चेमाकुं रुद्रा अपितो दिक्सुश्रिता सहस्रसो वेष्टाकुं हेत एमहे असो यो वसपतिनीलक्रीवो विलोवितः उतेनं गोपा अतृशन्नतृशन्नुतः यः उतेनं विश्वा पूता निसतृष्टो मृदयात्नः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीतुषेः अतो ये अस्य सत्त्वानोऽहं तेभ्योक्तरं नमः प्रमुञ्चतन्वनस्वमुपयोराज्ञियोह्याम् यास्त ते हस्त इषवः पराथापकवो वप अवधत्यतनुस्वकुं सहस्राक्षसते सुते निशीर्यशल्यानामुकाशिवो नः सुमनापवा विश्यं दनुकपत्तिनो विशल्योपानवाकुं मुता अनेशन्नस्येष्टव आपुरस्य निसङ्गतिः याते हेत्तिर्मीतुस्तमहस्ते पपूवते तनुः तयस्मा विश्वतस्त्वमयक्ष्मया परिपुचा नमस्ते अस्वायुताय नातताय कृष्णवेः उपाप्यामुतते नमो बाहुभ्यां तव तन्वने परिते तन्वनो हेत्यरस्मान् व्रणक्तु विश्वतः अथो य इषु तिष्ठवारे अस्मन्निते हितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय श्रीकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः